एस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। आगामिना फाल्गुन मासस्य एकविंशे दिवसे आयोक्ष्यमाणस्य प्रतिनिधि सभा सदस्यानां निर्वाचनस्य कृते गतरात्रितः एतद् विक्रमवर्षीय आचार संहिता क्रियान्विताऽस्ति। निर्वाचनायोगस्य ह्यः उपविष्टेन उपवेशेन एवं निर्णीतम् आसीत्। निर्वाचने स्वतन्त्रताम् स्वच्छताम् निष्पक्षताम् पारदर्शिताम् मितव्ययिताम् भयमुक्तम् वातावरणम् च संस्थापयितुम् आवश्यकता अस्ति। त्यतः त्रिसप्तत्युत्तर द्विसहस्रतमस्य निर्वाचनाधिनियमस्य द्वाविंशतितमेन प्रकरणेन प्रदत्तम् अधिकारम् प्रयुज्य आयोगेन आचार संहिताम् निर्माय तस्याः क्रियान्वयनम् विहितमस्तीति सहायक प्रवक्ता कुलबहादुर जीशी असूचयत्। अत्रान्तरे निर्वाचनायोगेन आचार संहिताया क्रियान्वयनस्य विषये सर्वकारः ज्ञापितोऽस्ति। कार्यवाहक प्रमुख निर्वाचनायुक्तस्य रामप्रसाद भण्डारिणः नेतृत्वे गतेन आयोगस्य प्रतिनिधिमण्डलेन ह्यः बालवाटार स्थाने आयोजिते कार्यक्रमे आचार संहितायाः क्रियान्वयनस्य विषयो विज्ञापितोऽस्ति। आगामिना फाल्गुन मासस्य एकविंशे दिवसे सम्पत्स्यमानस्य प्रतिनिधि सभा सदस्यानां निर्वाचनस्य कृते स्वमंगलवासरे प्रत्याशितायाः पंजीकरणस्य कार्यक्रमान् निर्धारितोऽस्तीति निर्वाचनायोगेन ज्ञापितं वर्तते। प्रत्याशिभिः स्वस्य निर्वाचनक्षेत्रे विद्यमानान् मुख्य निर्वाचनाधिकृतस्य कार्यालयं च प्राप्य मनोनयनपत्रस्य पंजीकरणं कारयितुं शक्यते इति आयोगेन ज्ञापितमस्ति। प्रत्याशिताया मनोनयनपत्रस्य पंजीकरणस्य समये प्रत्याशिभिः नेपाली नागरिकताया प्रमाणपत्रस्य प्रतिलिपि मतदातृ परिचयपत्रस्य प्रतिलिपि अन्तिम मतदातृ नामावल्यां यत्र नाम अस्ति तस्य प्रमाणप्रपत्रं कुत्रापि पारिश्रमिकयुते पदे विद्यमानता अस्ति चेत् ततः त्यागपत्र प्रदानस्य पत्रं प्रस्तावकेन समर्थकेन च हस्ताक्षराणि कृत्वा नियमपूर्वकं प्रपूरितं मनोनयनपत्रं च प्रस्तुतानि वर्तन्ते इति आयोगेन ज्ञापितम् अस्ति। प्रधानमन्त्रिणा सुशीला कार्किणा निर्वाचनायोगस्य पदाधिकारिणां च मध्ये निर्वाचनम् अधिकृत्य विमृष्टं वर्तते। बालवाटारावर्तिनी प्रधानमन्त्री निवासे ह्यः सम्भूते विमर्शने अर्थमन्त्री रामेश्वर खनालः विधि न्याय संसदीय विषय मन्त्री अनिल कुमार सिम्हा परराष्ट्र मन्त्री बालानन्द शर्मा कार्यवाहक प्रमुख निर्वाचनायुक्त रामप्रसाद भण्डारी अन्य पदाधिकारिणश्च सहभागिनः आसन्। तामाङ समुदायेन अद्य तत्समुदायस्य नववर्षस्य स्वागतं विदाय स्वनाम ल्होसार पर्व भव्यरूपेण समाद्रियमाणं वर्तते। माघशुक्लपक्षस्य प्रतिपत्तिथित तामाङ समुदायस्य नववर्षं प्रारभते इत्यतः तत्समुदायेन पर्वेदं नववर्षत्वेन समाद्रियते। अद्यत द्वाषष्टुत्तराष्टाविंशतिशततम वर्षं प्रारब्धमस्ति। तथैव अद्यत सर्पवर्षं समाप्य अश्ववर्षं प्रारब्धं वर्तते। ल्होसार पर्वण अवसरे अद्य राजधान्यां काष्ठमण्डपे देशस्य अन्येषु बहुषु स्थानेषु विशेषरूपेण तामाङ जातेः बाहुल्ययुतेषु जनपदेषु च विभिन्नाः कार्यक्रमाः समायोजिताः वर्तन्ते। एतदवसरे राष्ट्रपतिना रामचन्द्र पौडेलेन उपराष्ट्रपतिना रामसाहेब प्रसाद यादवेन अन्यै नेतृभिश्च शुभकामना सन्देशः प्रदत्तोऽस्ति। स्वनाम ल्होसार पर्वण अवसरे अद्य सर्वकारेण आराष्ट्रं सार्वजनिकावकाशः प्रदत्तो वर्तते। सुनसरी जनपदस्य धराननगरे ह्यः दुरापन्नायां बसयानस्य दुर्घटनायां पञ्चजनाः मृताः सन्ति। दुर्घटनायां चतुर्विंशतेः अपि अधिकाः जनाः आताः वर्तन्ते। धनकुटा जनपदात् धराननगरं प्रति प्रस्थीयमानं बसयानं धराननगरस्य जीरो प्वाइंट स्थाने दुर्घटितम् आसीत्। दुर्घटनायां महोत्तरी जनपदस्य गैडाभेटपुर स्थानस्य थैरिया कुमार यादव जनकपुरस्य अष्टादश मासानां बालक ऋषभ कुमार मण्डल सुनसरी जनपदस्य उमेश राई झापा जनपदस्य नयन थापा धराननगरस्य सुवेक्षा सुब्बा च मृताः वर्तन्ते इति सुनसरी जनपदस्य प्रहरी प्रवक्ता प्रहरी नायब उपरीक्षकः चन्द्र खड्का असूचयत्। एवमेव उदयपुर जनपदे दुरापन्नायां ट्रकयानस्य दुर्घटनायां चालकस्य सहचालकस्य च मृत्युः सम्भूतोऽस्ति। उदयपुर जनपदस्य उदयपुर गढ़ी ग्रामपालिकायाः सप्तमवडा क्षेत्रवर्तिनी मदन भण्डारी राजमार्गे ह्य दुरापन्नायाम दुर्घटनायाम चालकस्य सचालकस्य च मृत्यु सम्भूतोऽस्ति। अधुनावधि मृतकयोः सत्यापनम् सम्भूतम् नास्तीति प्रहरिणा ज्ञापितम् वर्तते। राष्ट्रिय सभाया एकोनविंशस्य अधिवेशनस्य प्रथमोपवेशन ह्य राष्ट्रिय सभाया सदस्यस्य बलदेव बोहरा इत्यस्य निधने शोक प्रस्ताव पारितीकृतो वर्तते। राष्ट्रिय सभाया अपरोपवेशः शैव माघमासस्य नवमे दिवसे शुक्रवासरे दिवा पञ्चदशोत्तरैकवादने वस्तेति निर्धारितो वर्तते। काष्ठमण्डप महानगरपालिकाया प्रमुखेण बालेन्द्र सायन, धरान उपमहानगरपालिकाया प्रमुखेण समसंस्कृति दलस्य अध्यक्षेण हर्क साम्पाङ इति उपनाम्ना हर्कराज राई इत्यनेन च पदात्यागपत्रम् प्रदत्तम् वर्तते। काष्ठमण्डप महानगरपालिकाया प्रमुखेण सायन, महानगरपालिकाया उपप्रमुखस्य सुनिता डंगुल इत्यस्य समक्षम् ह्यस्तनात् दिवसादेव क्रियान्वयनत्वेन त्यागपत्रम् प्रदत्तम् अस्तीति साहस्य सचिवालयेन ज्ञापितम् वर्तते। एवमेव धरान उपमहानगरपालिकाया प्रमुखेण वडाध्यक्षस्य सप्तदश वडा क्षेत्रस्य वडाध्यक्षेण सूर्यप्रसाद भट्टराई इत्यनेन च उपप्रमुखस्य आङ्ग्रेम्बा विक्रम्बा इत्यस्य समक्षम् पदात्यागपत्रम् प्रदत्तम् वर्तते इति समाचाराः।